राम गीता जी का पाठ 15वां अध्याय प्रारंभ से श्लोक 10 तक। राम
वसुदेव सुतं देवं देवकी करनानैवं कृष्णं वन्दे जगद्गुरुं अथ पञ्चदशोऽध्याय ूर्धमूलमधशाखो मा स्वच्छं प्राहुरव्ययम् खन्दांसि यस्य पर्णानि यस्तं वेदसवेदवे अधस्तूर्धम् गुणवृद्धानुसन्धुतानि कर्मानि बन्धीनि मनुष्यलोके न रूपमस्ये भोगलव्यभि सन्तृष्टम् विरूढमूल मकन्दशेन गृहे न शेत्वा ततः पदं तत्परिमार्जितव्यम् यत्त्वं गोपालं वर्षन्ति भूय तमेव चार्यं पुरुषं प्रपद्ये यतः प्रवृत्ते कृता पुरन्ति निर्माणमोहादिकसङ्गलोक नाशदति नाशाङ्को न पारको यद्वा नैव सन्ति तद्धान परमं मम नैवांशो जीवलोके जीवभूत सनातन मनसस्थानन्दियानि प्रकृतिकानि कर्षति शरीरं यद्वाप्नोति यत्साप्योत्क्रामतीश्वर विहेकैतानि संयाति श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च अभीष्टाय मनस्ताय विषयानुपसेवते गोत्कामन्तं सुतं वापि विमूढानानुपश्यन्ति पश्यन्ति ज्ञानच सुख गोत्कामन्तं सुतं वापि ज्ञानं वा गुणान्वितम् ज्ञानचक्षुः। वसुदेव सुतं देवं पंचजानुरमर्दनं देवकी करनानैवं कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं
हरि शरणं 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 हरि शरणं